अथ षष्ठ स्कंध अथ पंचदशोध्याय श्री शुक उवाच उचतुर्मृतकोपान्ते पततम् मृतकोपमम् शोकाभिभूतम् राजानम् बोधयन्तौ सदुक्तिभिः कोऽयम् स्यात् तौ राजेन्द्र भवान् यमन शोचति त्वम् चास्य कतम सृष्टौ पुरे दानीमतः परम् यथा प्रयान्ति संयान्ति श्रोतो वेगेन बालुकाः संयुज्यन्ते विजुज्यन्ते तथा कालेन देहिनः यथा धानासु वैधाना भवन्ति न भवन्ति च एवम् भूतेषु भूतानि चोदितानि शमाया वयम् च त्वम् च ये चेमे तुल्यकालाश्चराचरः जन्ममृत्युर्यथा पश्चात् प्राणैवमधुना विभोः भूतैर्भूतानि भूतेशः सृजत्यवति हन्त्यजः आत्मसृष्टैरस्वतन्त्रैरनपेक्षोऽपि बालवत् देहेन देहिनो राजन् देहाद्देहोऽभिजायते बीजादेव यथा बीजम् देह्यर्थ इव शाश्वतः देहदेहि विभागोऽयम् अव्येककृतः पुरा जातिव्यक्तिविभागोऽयम् यथा वस्तूनि कल्पितः श्रीशुक उवाच एवमाश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः प्रमृज्य पाणिना वक्त्रम् आधिम्लानमभाषत राजोवाच कौ युवाम् ज्ञान सम्पन्नौ महिष्ठौ च महीयसाम् अवधूतेन वेषेण गूढा विह समागतौ चरन्ति ह्यवनौ कामम् ब्राह्मणा भगवत्प्रियः मादृशाम् ग्राम्य बुद्धीनाम् बोधायनमतलिङ्गिनः कुमारो नारद रिभुरङ्गिरा देवलोषितः अपान्तर्तमो व्यासो मार्कण्डेयोऽथ गौतमः वसिष्ठो भगवान् राम कपिलो बादरायणिः दुर्वासा जाज्ञवल्क्यश्च जातु कर्ण्यस्तथारुणिः रोमशश्च्यवनो दत्त आसुरी सपतञ्जलिः ऋषिर्वेदशिराबोध्यो मुनिः पञ्चशिरास्तथा हिरण्यनाभ कौसल्य श्रुतदेव ऋतध्वज एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः तस्माज्जुयाम् ग्राम्यपशुर् मम मूढधिय प्रभु अन्धतमसि मग्नस्य ज्ञानदीप उदीर्यताम् अङ्गिरावाच अहम् ते पुत्रकामस्य पुत्रदोष्म्यङ्गिरा नृप एष ब्रह्मसुतः साक्षात् नारदो भगवान् ऋषिः इत्थम् त्वाम् पुत्रशोकेन मग्नम् तमसि दुस्तरे अतदर्हम् अनुस्मृत्य महापुरुषगोचरम् अनुग्रहाय भवतः प्राप्ता वावामिह प्रभो ब्रह्मण्यो भगवद्भक्तो नावसीदितुमर्हति तदैव ते परम् ज्ञानम् ददामि गृहमागतः ज्ञात्वान्याभिनिवेशम् ते पुत्रमेव ददावहम् अधुना पुत्रिणाम् तापो भवतैवानुभूयते एवम् द्वारा गृहारायो विविधैश्वर्यसम्पदः शब्दादयश्च विषयाश्चला राजविभूतय मही राज्यम् बलम् कोशो भृत्या मात्याशुर्जना सर्वेऽपि शूरसेने मे शोकमोभयातिदा गन्धर्वनगर प्रख्या स्वप्नमाया मनोरथा दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवः कर्मभिर्ध्यायतो नाना कर्माणि मनसो भवन् अयम् हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः देहिनो विविध क्लेश सन्तापकृदुदाहृतः तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः द्वैते ध्रुवार्थविश्रम्भम् त्यजोपशममाविश नारद उवाच एताम् मन्त्रोपनिषदम् प्रतीक्ष प्रयतो मम याम् धारयन् सत्यरात्रान् द्रष्टा सम्कर्षणम् प्रभुम् यत्पादमूलमुपसृत्य नरेन्द्रपूर्वे शर्वादयो भ्रममिमम् द्वितयम् विसृज्य सद्यस्तद्दीयमतुलानधिकम् महात्महित्वम् प्रापुर्भवानपि परम् न चिरादुपहेति इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहिताम् षष्ठस्कन्धे चित्रकेतुः सन्तुलनम् पञ्चदशोऽध्यायः।